टेक्स्ट 11 फोर्थ चैप्टर ये यता माम प्रपद्यन्ते ताम्स तथैव भजाम्यहम् मम वर्तमानु वर्तन्ते मनुष्या पार्थ सर्वशा ये यता मां प्रपद्यन्ते तां सतैव भजाम्यहम् मम वर्तमानु वर्तन्ते मनुष्य पार्थ सर्वशा यता मां प्रपद्यन्ते तां सतैव भजाम्यहम् मम वर्तमानु वर्तन्ते मनुष्य पार्थ सर्वशा Text 12. Kaṁshanta Karmanam Siddhim Yajanta. All of you stand up and say. Iha Devata Shipram He मानुषे लोके सिद्धिर् भवति कर्मजा कांक्षन्त कर्मणां सिद्धिम् यजन्त इह देवता क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा कांक्षन्त कर्मणां सिद्धिं यजन्त इह देवता क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा Text 13 Chaturvarnyam Maya Srishtam Gunakarma Vibhagasha Tasya Kartaram Apimam Vidhi Akartaram अव्ययम् चातुर्वर्ण्यं मया सृष्टम् गुणकर्म विभागशा तस्य कर्तारमपि मा
तस्य कर्तारमपि मा तस्य कर्तारमपि मा तस्य कर्तारमपि मा
विद्यकर्तारमव्ययम्
तस्य कर्तारमव्ययम्
विद्यकर्तारम्
विद्यकर्तारमव्ययम्
चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागशः तस्य कर्तारमपि मा विद्यकर्तारमव्ययम् Text 14 namam karmani limpanti name karma phale spriha okay sit down let's say all of you say the words properly iti mam यो बीजानाति कर्मभिर् न स बध्यते नमां कर्माणि लिम्पन्ति नमे कर्म फले स्पृहा इति मां यो बीजानाति कर्मभिर्न स बध्यते न मां कर्माणि लिम्पन्ति न मे कर्म फले स्पृहा इति मां यो बीजानाति कर्मभिर्न स बध्यते Text 15 एवम् ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः कुरु कर्मैव तस्मात्त्वं पूर्वै पूर्वतरं कृतम् एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः कुरु कर्मैव तस्मात्त्वम् पूर्वै पूर्वतरं कृतम् एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः कुरु कर्मैव तस्मात्त्वम् पूर्वै पूर्वतरं कृतम् ये यता मां प्रपद्यन्ते तां सतैव भजाम्यहं मम वर्तमानुवर्तन्ते मनुष्या पात सर्वशा कांक्षन्ता कर्मणां सिद्धिं यजन्त इह देवता क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागशा तस्य कर्तारमपि मां विद्यकर्तारमव्ययम् न मां कर्माणि लिम्पन्ति न मे कर्मे फले स्पृहा इति मां यो बिजानाति कर्मभिर्न स बध्यते एवं ज्ञात्वा कृतं कर्म पूर्वैरपि विमुक्षुभिः कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम्
सर्वे